ओम नमो भगवते वासुदेवाय। अथ द्वितीयोऽध्यायः। श्रीशुक उवाच इति भागवत पृष्ठः क्षत्रावार्तां प्रियाश्रयां प्रतिवक्तुं न चोत्सेह उत्कण्ठ्यात् स्मारितेश्वरः। यः पञ्चहायनो मात्रा प्रातराशाय याचितः तन्नैच्छद्रचयन् यस्य स पर्यां बाललीलया स कथं सेवया तस्य काले न जरसं गतः। पृष्टो वार्तां प्रतिब्रूयाद्भर्तुः पादावनुस्मरन् समुहूर्तमभूत्तूष्णीं कृष्णाङ्घ्रिसुधयाभृशं तीव्रेण भक्तियोगेन निमग्नः साधुनिर्वृतः। पुलकोद्भिन्न सर्वाङ्गो मुञ्चन्मीलदृशा शुचः पूर्णार्थोलक्षितस्तेन स्नेहप्रसरसंप्लुतः शनकैर्भगवल्लोकान् त्रिलोकं पुनरागतः। विमृज्य नेत्रे विदुरं प्रत्याहोद्धव उत्स्मयन् उद्धव उवाच कृष्णद्युमणिनिं लोचे गीर्णेष्वजगरेणः किं नु नः कुशलं ब्रूयां गतश्रीसुगृहेष्वहं दुर्भगोपत लोकोऽयं यदवो नितरामपि ये संवसन्तो न विदुर्हरिं मीना इवोडुपम् इङ्गितज्ञा पुरुप्रौढा एकारामाश्च सात्वताः सात्वतां ऋषभं सर्वे भूता वा सममं सत देवस्य मायया स्पृष्टा ये चान्यत सदाश्रिताः भ्राम्यते धीर्ण तद्वाक्यैरात्मन्युक्तात्मनोहरौ प्रदर्श्या तप्त तपसामवितृप्तदृशां नृणाम् आदायान्तर्धाद्यस्तु स्वबिम्बं लोकलोचनम् यन्मर्त्यलीलौपैकं स्वयोगमायाबलं दर्शयता गृहीतम् विस्मापनं स्वस्य च सौभगर्धेः परं पदं भूषणभूषणाङ्गम् यद्धर्मसूनोर्बतराजसो ये निरीक्ष्य दृक्स्वस्तयनं त्रिलोकः काक्ष्ण्येन चाद्येह गतं विधातुरर्वाश्रितौ कौशलमित्यमन्यत यस्यानुरागप्लुतः सरास लीलावलोकप्रतिलब्धमानाः व्रजस्त्रियो दृग्भिरनुप्रवृत्तधियोऽवतस्थुः किल कृत्यशेषाः स्वशान्तरूपे श्वितरैस्वरूपैरभ्यर्ध्यमानेष्वनुकम्पितात्मा परावरे सोमहदंशयुक्तो यजोऽपि जातो भगवान् यथाग्निः मां खेदयत्येतदजस्य जन्म विडम्बनं यद्वसुदेवगेः व्रजे च वासोरिभयादिव स्वयं पुराद्यवात्सीद्यदनन्तवीर्यः दुनोति चेत् स्मरतो ममैतत् यदा पादावभिवन्द्य पित्रोः ताताम्बकंसा दुरुशङ्कितानां प्रसीदतं नो कृतनिष्कृतीनां को वा मुस्याङ्ग्रिसरोजरेणुं विस्मर्तुमीशीत पुमान् विजिघ्रन् यो विस्फुरद्भ्रूविटपेन भूमेर्भारं कृतान्तेन तिरश्चकार दृष्टा भवद्भिर्ननुराजसूये चैद्यस्य कृष्णं द्विषतोऽपि सिद्धिः यां योगिन संस्पृहयन्ति सम्यग् योगेन कश्चद्विरहं सहेत तथैव चान्ये नरलोकवीराय आहवे कृष्णमुखारविन्दं नेत्रैः पिबन्तो नयनाभिरामं पार्थास्त्रपूता पदमापुरस्य स्वयं त्वसाम्यातिशयस्त्र्यधीशः स्वाराज्यलक्ष्म्याप्तसमस्तकामः बलिं हरद्भिश्चरलोकपालैः किरीटकोट्येदितपादपीठः दत्तस्य कैङ्कर्यमलं भृतान्नो विग्लापयत्यङ्गयदुग्रसेनं तिष्ठन्निषण्णं परमेष्टिधिष्ण्ये न्यबोधयद्देव निधारयेति अहोबकीयं स्तनकालकूटं जिघांसयापाय यदप्यसाध्वी लेभे गतिं धात्र्युचितां ततोऽन्यं कं वा दयालुं शरणं व्रजेम मन्ये सुरान् भागवतांस्त्यधीशे सम्रम्भमार्गाभिनिविष्टचित्तान् ये संयुगे चक्षततार्क्ष्यपुत्र मनसे सुनाभायुधमापतन्तं वसुदेवस्य देवक्यां जातो भोजेन्द्रबन्धने चिकीर्षुर्भगवानस्या शमजेनाभियाचितः ततो नन्दव्रजमितः पित्रा कंसाद्विभिता एकादश समास्तत्र गूढार्चिः सबलो वसत् परीतो वत्सपैर्वत्सांश्चारयन् व्यहरद् विभुः यमुनोपवने कूजद्विजसङ्कुलिताङ्घ्रिपे कौमारीं दर्शयंश्चेष्टां प्रेक्षणीयां व्रजौकसां रुदन्निवह सन्मुग्धबालसिंहावलोकनः स एव गोधनं लक्ष्म्या निकेतं सितगोवृषं चारयन्ननुगान् गोपान् रणद्वेणुररीरमत् प्रयुक्तान् भोजराजेन मायिनः कामरूपिणः लीलया विनुदत्तान्स्तान् बालः क्रीडनकानिव विपन्नान् विषपानेन निगृह्य भुजगाधिपम् उत्थाप्यापाय यद्गावस्तत्तोऽयं प्रकृतिस्थितम् अयाजयद्गोसवेन गोपराजं द्विजोत्तमैः वित्तस्य चोरुभारस्य चिकीर्षन् सद्व्ययं विभुः वर्षतीन्द्रे व्रज कोपाद्भग्नमानेति विह्वलः गोत्रलीलातपत्रेण त्रातो भद्रानुगृह्णता। शरच्छसिकरैर्मृष्टम् मानयन् रजनीमुखम् गायन् कलपदम् रेमे स्त्रीणाम् मण्डलमण्डनः। ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीयस्कन्धे विदुरोद्धवसंवादे द्वितीयोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।